इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य असमराज्यस्य नामरूपनगरे 12,000 करोडरूप्यकाणाम् अमोनिया यूरिया उर्वरक परियोजनायाः भूमिपूजनं करिष्यति। सः नामरूपनगरे जनसभाम् अपि सम्बोधयिष्यति। राज्यस्य यात्रायाः द्वितीये दिने श्रीमोदी ब्रह्मपुत्रनद्याः उपरि क्रूज नौकायां स्वस्य परीक्षा पे चर्चा इत्येतस्मिन् कार्यक्रमे विद्यालयानां 25 छात्रैः सह संवादं विधास्यति। ततः परं प्रधानमन्त्री असम आन्दोलनस्य 60-80 यावत् हुतात्मवीराणां स्मरणे निर्मितं गुवाहाटी नगरस्य पश्चिम बोरागांव इत्यत्र नवनिर्मितं हुतात्म स्मारक क्षेत्रं गमिष्यति। श्वः प्रधानमन्त्रिणा गुवाहाटी नगरस्य लोकप्रिय गोपीनाथ बारदोलोई अन्ताराष्ट्रिय विमानस्थानके अत्याधुनिकं नवनिर्मितं नूतनं टर्मिनल भवनम् उद्घाटितम्। सः विमानस्थानके असमराज्यस्य पूर्व मुख्यमन्त्रिणः गोपीनाथ बारदोलोई वर्यस्य प्रतिमायाः अनावरणमपि कृतम्। प्रायः 44.5 लक्ष वर्गमीटर परिमितेषु व्याप्तं नूतनं टर्मिनल भवनं प्रतिवर्षं 3.5 कोटियात्रिणां कृते परिकल्पितमस्ति। नूतनस्य टर्मिनल भवनस्य बहिः एकां जनसभां सम्बोधयन् श्रीमोदी अवदत् यत् केन्द्रसर्वकारः असमराज्यस्य विकासाय प्रतिबद्धः अस्ति।
मोदी के लिए असम का विकास ये जरूरत भी है, जिम्मेदारी भी है और इसकी जवाबदेही भी है। और इसलिए साथियों, बीते 11 वर्षों में असम और नॉर्थ ईस्ट के लिए लाखों करोड़ रुपयों की विकास परियोजनाएं शुरू हुई है। आज असम आगे भी बढ़ रहा है और नए कीर्तिमान भी गढ़ रहा है।
केन्द्रीय कृषि कृषक कल्याण मन्त्री शिवराज सिंह चौहानः अवदत् यत् विकसित भारत जीरामजी विधेयकं न केवलं कृषकाणां श्रमिकाणां च कृते लाभप्रदः अपितु प्रत्येकस्मिन् क्षेत्रे ग्रामाणां विकासेन सह सम्बद्धः अस्ति। सः ह्यः नवदिल्ल्यां 25,000+ चौधरी चरण सिंह पुरस्कारान् सम्बोधयनासीत्। सः सूचितवान् यत् मन्त्रालयः आगामि आयव्यय संकल्पनापत्रस्य 26,000-27,000+ कृते कृषिक्षेत्रे स्थिति स्थापक व्यवस्थायाः निर्माणाय विचारान् आमन्त्रयति। श्रीचौहानः योजना निर्माणार्थं कृषकान् विशेषज्ञान् कृषिवैज्ञानिकान् च संगृहीतुं चिन्तन शिविरस्य स्थापनायां बलं प्रदत्तवान्। वायुप्रदूषणं निवारणाय दिल्ली सर्वकारेण ग्रैप चतुर्थचरणस्यान्तर्गतं स्वीयाभियानम् इतोऽपि सुदृढं कृतम्। पर्यावरणमन्त्रिणा मजिन्दर सिंह सिरसा इत्यनेन एतादृशाणाम् उद्योगाणां निर्मालस्थनानां च विरुद्धं कठोरकार्याचरणस्य पूर्वसूचना प्रदत्ता, ये प्रदूषणं जनयन्ति। एकस्मिन् वक्तव्ये राज्यसर्वकारः अवदत् यत् आहत्य 12,600 यावत् अनुपालनसंयन्त्राणि बाधितानि तथा च त्रिषु दिनेषु 1,00,000+ प्रदूषणनियन्त्रणप्रमाणपत्राणि च वितरितानि। क्रीडावार्तासु एसीसी पुरुषाणाम् अण्डर-19 एशियाचषक-2025 इत्येतस्यां क्रीडायाम् अद्य प्रातः दुबईनगरस्य आईसीसी अकेडमी क्रीडाङ्गणे अन्तिम क्रीडायां भारतीयदलं चिरप्रतिद्वन्दिनं पाकिस्तानदलं सम्मुखीकरिष्यति। क्रीडायाः आरम्भः भारतीय समयानुसारं प्रातः 10:30 भविष्यति। महिला क्रिकेट क्रीडायाम् अद्य विशाखापट्टनम नगरस्य डॉ वाई एस राजशेखर रेड्डी एसीए वीडीसीए क्रीडांगणे पंच क्रीडा श्रृंखलायाः प्रथमायां 20-20 अन्ताराष्ट्रिय क्रीडायां भारतीयदलं श्रीलंकादलं सम्मुखीकरिष्यति। क्रीडायाः आरम्भः सायं 7:00 भविष्यति। इति वार्ताः।